एवमेषु तंग समयं भगवान्तराचराचकहंगन्तराचनालाण्डङ्गाधानमग्गपतिपन्नो होतिमहत्ता भिक्खुसङ्घेन सद्धिं पञ्चमत्ते हि भिक्खुसते हि सुप्रियो पिकोपरिपाचकोऽन्तराचराचकहंगन्तराचनालाण्डङ्गाधानमग्गपतिपन्नो होति सद्धिं अन्तेवासिना ब्रह्मतत्त्वेन मानवेन तत्त्वसुतं सुप्रियो परिपाचकोऽनेकपर्याये येन बुद्धस्स अवर्णं भासति धम्मस्स अवर्णं भासति सङ्घस्स अवर्णं भासति सुप्रियसपनपरिपाचकस्स अन्तेवासी ब्रह्मतत्त्वो मानवो अनेकपर्यायेन बुद्धस्स वर्णं भासति धम्मस्स वर्णं भासति सङ्घस्स वर्णं भासति इति हते उभो आचर्यन्ते वासी अन्यमन्यस्स उचु विपञ्चनीकवाता भगवन्तं पित्तितो पित्तितो अनुबन्धा हुन्ति भिक्खुसङ्घं च अथ को भगवा अम्बलट्ठिकायां राजाकारके एकरत्तिवासं उपगच्छि सद्धिं भिक्खुसङ्घेन सुप्रियो पिको परिपाचको अम्बलट्ठिकायां राजाकारके एकरत्तिवासं उपगच्छि अन्तेवासिना ब्रह्मतत्त्वेन मानवेन तत्रापि सुतं सुप्रियो परिपाचको अनेकपर्यायेन बुद्धस्स अवर्णं भासति धम्मस्स अवर्णं भासति सङ्घस्स अवर्णं भासति सुप्रियसपनपरिपाचकस्स अन्तेवासी ब्रह्मतत्त्वो मानवो अनेकपर्यायेन बुद्धस्स वर्णं भासति धम्मस्स वर्णं भासति सङ्घस्स वर्णं भासति इति हते उभो आचर्यन्ते वासी अन्यमन्यस्स उचु विपर्जनीकवाता विहरन्ति अथ को सम्बहुलानं भिक्खूनं रतिया पच्चुस समयं पच्चुत्तितानं मण्डलमाले सन्निसिन्नानं सन्निपतितानं अयं सङ्कियधम्मो उत्पादि आचर्यं आवुषो अभूतं आवुषो या वञ्चितं तेन भगवता जानता पश्यता अर्हता सम्मा सम्बुद्धेन सत्तानं नानाधिबुद्धिकता सुपतिविदिता अयं हि सुप्रियो परिपाचको अनेकपर्यायेन बुद्धस्स अवर्णं भासति धम्मस्स अवर्णं भासति सङ्घस्स अवर्णं भासति सुप्रियसपनपरिपाचकस्स अन्तेवासी ब्रह्मतत्त्वो मानवो अनेकपर्यायेन बुद्धस्स वर्णं भासति धम्मस्स वर्णं भासति सङ्घस्स वर्णं भासति इति मे उभो आचर्यन्ते वासी अन्यमन्यस्स उजु विपञ्चनीकवाता भगवन्तं पित्तितो पित्थितो अनुबन्धा हुन्ति भिक्खुसङ्घं चाति अथ को भगवा तेषां भिक्खूनां इमं सङ्घीयधम्मं विदित्वा येन मण्डलमालो तेनुपसङ्कमि उपसङ्कमित्वा पण्यते आसने निषिद्धि निसज्जको भगवा भिक्खु आमन्ते सीकायनुत्थ भिक्खवे एतर्हिकताय सन्निसिन्ना सन्निपतिता काचपनवो अन्तरा कथा विपकताति एवं वुते ते भिक्खु भगवन्तं एतदवोचुं इधभन्ते अम्हाकं रत्तिया पच्चुस समयं पच्चुत्तितानं मण्डलमाले सन्निसिन्नानं सन्निपतितानं अयं सङ्कियधम्मो उदपादि आचर्यं आवुषो अभूतं आवुषो या वञ्चितं तेन भगवता जानता पश्यता अर्हता सम्मा सम्बुद्धेन सत्तानं नानाधिमुक्तिकता सुपतिविदिता अयं हि सुप्रियो परिपाचको अनेकपर्यायेन बुद्धस्स अवर्णं भासति धम्मस्स अवर्णं भासति सङ्घस्स अवर्णं भासति सुप्रियसपनपरिपाचकस्स अन्तेवासी ब्रह्मतत्त्वो मानवो अनेकपर्यायेन बुद्धस्स वर्णं भासति धम्मस्स वर्णं भासति सङ्घस्स वर्णं भासति इति मे उभो आचर्यन्ते वासी अन्यमन्यस्स उचु विपञ्चनीकवाता भगवन्तं पित्थितो पित्थितो अनुबन्धा हुन्ति भिक्खुसङ्घं चाति अयं को नो भन्ते अन्तरा कथा विपकता अथ भगवा अनुपातोति ममङ्ग भिक्खवे पदे अवर्णं भासेयुं धम्मस्स वा अवर्णं भासेयुं सङ्घस्स वा अवर्णं भासेयुं तत्र तुम्हे हि न आघातो न अपचयो न चेदसो अनभिराद्धि करणीया ममङ्ग भिक्खवे पदे अवर्णं भासेयुं धम्मस्स वा अवर्णं भासेयुं सङ्घस्स वा अवर्णं भासेयुं तत्र चेतुम्हे असथकुपिता वा अनतमना वा तुम्हङ्गे वा सत्तेन अन्तरायो ममङ्ग भिक्खवे परे अवर्णं भासेयुं धम्मस्स वा अवर्णं भासेयुं सङ्घस्स वा अवर्णं भासेयुं तत्र चेतुम्हे असथकुपिता वा अनतमना वा अपिनुतुम्हे परेसं सुभासितं दुभासितं आचाने यथातिनोहे तं भन्ते ममंवाभि कवे परे अवन्नं भासेयुं धम्मस्य वा अवन्नं भासेयुं संघस्य वा अवन्नं भासेयुं तत्तुम्हेहि अभूतं अभूततो निबेधे तपं इति पेतं अभूतं इति पेतं अथच्छं नथि चेतं अमहेषु न च पनेतं अमहेषु संविञ्चतीति ममंवाभि कवे परे वर्णं भासेयुं धम्मस्य वा वर्णं भासेयुं संघस्य वा वर्णं भासेयुं तत्तुम्हेहि न आनन्दो न चोमनसं न चेतसो उपिलावितत्तं करणीयं ममंवाभि कवे परे वर्णं भासेयुं धम्मस्य वा वर्णं भासेयुं संघस्य वा वर्णं भासेयुं तत्तचेतुम्हे असत आनन्दिनो सुमना उपिलाविता तुम्हंगे वसते न अन्तरायो ममंवाभि कवे परे वर्णं भासेयुं धम्मस्य वा वर्णं भासेयुं संघस्य वा वर्णं भासेयुं तत्तुम्हेहि भूतं भूततो पतिचानितभं इति पेतं भूतं इति पेतं तच्छं अति चेतं अमहेषु संविञ्चति च पनेतं अमहेषु ते।